भद्रं कर्णैभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्जयतराः स्थिरैरङ्गैस्तुष्टुवा गुंसस्तनूभिर्व्यासे महिदेवहितं जदायुः सतमेन्नु शरदो अन्तिदेवा जतरानश्चक्राजरसन्तनु।